युवो रजांसि सुजमासो अश्वारथो यद्वां पर्यर्णांसि दीजत हिरण्यजाभां पपयः पृषा जन्मध्यः पिबन्ता उषसः सचेथे युवमद्यस्यावनक्षथो यद्विपद्मनो नर्यस्य प्रजज्योः स्वसा यद्वां विश्वगूर्ते भराति वाजा येट्टे मधुपाविशे च युवं भय उसृजाजामधत्तं भक्वमामाजामपपोर्भ्यङ्गोः अन्तर्यत्वनिनो वामृतप्सोह्वारो न शुचिर्यजते हविष्मान् युवं ह घर्मं मधुमन्तमत्र जेपो न क्षोदो वृणीतमेषे तद्वान्नरवश्विना पश्व इष्टेरथ्येव चक्रा प्रतिजन्ति मध्वाः आवान् दानाज बवृतीजदस्रा गोरोहेण तौग्र्यो न जिव्रीः अपह क्षोडे सजते माहिना वां जोर्णो वामक्षुरं हसो यजत्र निजद्युपेथे निजुतः सुदानो उपस्वथाभिस्रजतः पुरन्धिम् प्रेषद्वेषद्वातो न सूरिरामहे ददे सुव्रतो न वाजम् वयम् चिद्धिवाम् जरितारः सत्यापि पञ्ञामहे विपणिर्हितावान् अधा चिद्धिष्माश्विनावनिन्द्यापाथो हिष्मा वृषणावन्ति देवम् युवाञ्चिद्धिष्माश्विनावनुद्योऽन्विरुद्रस्य प्रस्रवणस्य सातौ अगस्त्यो नरान्नृषप्रशस्तः काराधुनेव चितयत्सहस्रैः प्रयद्वहे एथे महिनारथस्य प्रस्पन्द्राजाथो मनुषो न होता धत्तम् सूरिभ्य उत वा स्वश्व्यन्ना सत्या रजिषा च स्याम तम् वाम् रथम् वयमद्याहुवेमस्तो मयीरश्विना सुभिता जनव्यम् अरिष्टरेमिम् परिद्याभिजानम् विद्यामेषम् वृजनम् जीरदानुम्